परमात्मने नमः अथैकादशोऽध्यायः अर्जुन उवाच मदनु दर्शयामास पार्थाय पश्यामि त्वां दीपहुताशवक्त्रं स्वतेजसावीश्वमिदं पपन्तम् पृथिव्योरिदमं परं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् सुरसंघाविशन्ति केचिद्धीताः प्राञ्जलयो गृह्णन्ति स्वस्तीत्युक्त्वा महर्षि सिद्धसंघा स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः रुद्रादित्या वसवो ये च साध्या विश्वेश्विनौ मरुतश्चोष्मपाश्च गन्धर्वयक्षा सुरसिद्धसङ्घा वीक्षन्ते त्वां वीष्मिताश्चैव सर्वे महते बहुवत्र नेत्रं महाबाहो बहुबाहूरुपादम् बहूदरं बहुदंशाकरालं दृष्ट्वा लोका प्रव्यथितास्तथा नभस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं विन्दामिशमं च विष्णु दंष्ट्राकराला निचते मुखानि दृष्टैव काला नलसन्निभानि दिशो न जाने न लभे च शर्म प्रसीद देवे शजगन्निवास त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घै भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यै त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि केचिद्विलग्ना दशनान्तरेषु सन्दृशन्ते चूर्णितैरुत्तमाङ्ग यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति तथा तवा मे नरलोकवीरा विशान्तिवक्त्राण्यभिज्वलन्ति दीपं ज्वलनं पतंगा विशांति नाशाय समृद्ध वेगाः तथैव नाशाय विशांति लोका स्तवापि वक्राणि समृद्ध वेगा लेलीयसे ग्रसमान समंताल लोकान् समग्रान् वदनै ज्वलद्धि समग्रम भासस्तवोग्राः प्रतपन्ति विष्णु आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद विज्ञातुमिच्छा
कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाह तुमिह प्रवृत्तः
ऋतेऽपि त्वां न भविष्यन्ति सर्वे एव स्थिताः प्रत्यनीकेषु योधाः
तस्मात् त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रुं भुङ्क्ष्व राज्यं समृद्धम् मयैवैते निहता पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् द्रोणं च भीष्मं तजयद्रथं च कर्णं तथान्यामपि योधवीरां मया हतास्त्वं जहिमा व्यथिष्ठा युध्यस्वजेता शिरणे सपत्ना संजय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी नमस्त्रीत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य अर्जुन उवाच स्थानी ऋषिकेश तव प्रकीर्त्या जगत् प्रहिष्य तनुरज्यते च
नमोऽस्तुते सर्वत एव सर्वा
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घा तेन न मेरं महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे
नमोऽस्तुते सर्वत एव सर्वा
अनन्तदेवेश जगन्निवास त्वमक्षरम्
Namostu te sarvata deva sarva
kiri
संगवर
समामेति पांडव ओम तत्सत् श्रीमद्भगवद्गीता सूपनिषत्सु ब्रह्म विद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे विश्वरूपदर्शन योगो नाम एकादशः।